Voice of America.
ധനസമാഹം വട്ടക്കായിലോ ഇസ്രായേലിലോ ഇൻചാം ഷോഹാസ് ബാബ്ലച്ചാരും പ്രശ്നത്ത് യക്കുലിയ മിർച്ചാ കൊമിഷൻ പ്രസക്ത ഇന്ത്യ മിർച്ചാവ് തെക്മിർലിച്ച ലോകിലൂർവേത് ബാബ്ലച്ചാരും സൂര്യ ദീർഘകറവും അൻപത് അൻപത് തോന്നറിച്ച് ഷോഹാസ്ണ്ണുപാൽ ഗതമതാക്കായും എണ്ണിക്കയും സലാസിനും തോന്നറിച്ച് ഡർമോ തോന്നി പാർട്ടി പതിനെട്ടും പുറത്തെടുക്കാൻ കൊമിഷനും
ከትናንት በስቲያ ረቡዕ ጳጉሜ 4/2012 የተካሄደው ክልላዊ የትግራይ ምርጫ አስመልክቶ ጊዜያዊ ውጤት ይፋ ያደረጉት የክልል ምርጫ ኮሚሽን ኮሚሽነር መምህር ሙሉቀን ኪዳነማርያም ህወሀት የአብላጫ ድምፅ ውጤት አሸናፊ ፓርቲ መሆኑን ገልጸዋል። ከህወሀት ቀጥሎ ድምፅ ያገኘ ፓርቲ ባይቶና ሲሆን የትግራይ ነጻነት፣ ሳልሳዊያን ትግራይና አሲምባ ፓርቲዎች ደግሞ ሶስተኛ፣ አራተኛና አምስተኛ በመሆን ድምፅ አግኝተዋል። በተገኘ ውጤት መሰረት ህወሀት በአብላጫ ድምፅ ተመርጠው ከሚገቡ 150 በሁሉም ቦታዎች ማሸነፉ ገልጸዋል። በተመጣጣኝ ድምፅ የሚገኙ 38 ወንበሮች ደግሞ ተወዳዳሪ ፓርቲዎች ተነጋግረው ባገኙት ድምፅ የሚከፋፈሉት ነው ብለዋል ኮሚሽነሩ። ቀርተው ያሉት 38 ናቸው። የትግራይ ምክር ቤት ከዚህ ዓመት ጀምሮ 190 ወንበሮች ይኖሩታል። አሁን የገለጽነው የ152 ብቻ ነው። 38 ደግሞ ማን ይወክላል የሚል ለፓርቲዎች የሚሰጥ ነው። ፓርቲዎቹ እንዴት ይወስዱታል፣ እንዴት ድርድር ያካሂዳሉ የሚለው የራሳቸውን ነው ነው ያሉት። በተገለጸው ጊዜያዊ ውጤት መሰረት ህወሀት 2,590,620 ድምፅ አግኝተዋል። ባይቶና 20,839፣ የትግራይ ነጻነት ፓርቲ 18,479፣ ሳልሳይ ወያነ ትግራይ 7,136፣ አሲምባ ደግሞ 774 ድምፅ አግኝተዋል። የመጨረሻው የምርጫ ውጤት በቅርቡ ይፋ እንደሚደረግ ኮሚሽኑ አስታውቋል። ለአሜሪካ ድምፅ ምንጌታ ጽብሃ ነዋለን።